एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली संयुक्त राष्ट्रसंघस्य 79वीं महासभायां भागं ग्रहीतुं ह्य अमेरिकादेशं प्रति प्रस्थितवान् अस्ति। अमेरिकादेशं प्रति प्रस्थानात् पूर्वं प्रधानमन्त्रिणे ओलीने त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे प्रतिनिधिसभाया सभामुख देवराज घिमिरे, राष्ट्रियसभाया अध्यक्ष नारायण प्रसाद दाहाल, उपप्रधानमन्त्रिणो, मन्त्रिण, सांसदा, सर्वकारस्य उच्च पदाधिकारिण, सुरक्षा निकायानां प्रमुखाश्च प्रास्थापनिकम् अभिवादनम् अर्पितवन्त। अमेरिका देशे प्रधानमन्त्री ओली अस्यैव आश्विन मासस्य आगामिनि अष्टमे दिवसे अमेरिका देशस्य न्यूयॉर्क नगरे प्रारप्स्यमाणायाः राष्ट्रसंघस्य महासभायाः उद्घाटन समारोहे सहभागी भविष्यति। ततः आश्विनस्य नवमे दिवसे प्रधानमन्त्री ओली अमेरिका देशस्य राष्ट्रपतिना जो बाइडेन इत्यनेन आयोक्ष्यमाणे रात्रि भोजन समारोहे सहभागी भविष्यति इति च परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। तथा आश्विनस्य दशमे दिवसे प्रधानमन्त्री ओली राष्ट्रसंघस्य महासभां सम्बोधयिष्यति। प्रधानमन्त्री ओली अमेरिका देशे कोलम्बिया विश्वविद्यालयं, हावर्ड विश्वविद्यालयं चापि सम्बोधयिष्यति। भ्रमणस्य क्रमे प्रधानमन्त्रिणा ओलिना संयुक्त राष्ट्रसंघस्य महासचिवेन एन्टोनियो गुटरेस इत्यनेन सह मेलवार्ता करिष्यते। प्रधानमन्त्री ओली अस्यैव आश्विन मासस्य आगामिनि चतुर्दशे दिवसे स्वदेशं प्रत्यागन्ता। प्रधानमन्त्रिणा सह प्रधानमन्त्रिणः पत्नी राधिका साक्य, परराष्ट्रमन्त्री डाक्टर आरजू राणा, प्रधानमन्त्रिणः प्रमुख परामर्शदाता विष्णु प्रसाद रिमालः, परराष्ट्र सचिव सेवालाम सालः, नेपाल सर्वकारस्य वरिष्ठाधिकारिणश्च वर्तन्ते। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणः अनुपस्थितौ प्रधानमन्त्रिणा विधीयमानानि दैनिक प्राशासनिक कार्याणि उपप्रधान नगरीय विकास मन्त्रिणा प्रकाशमान सिंहेन निर्वहणत्वेन निर्धारितमस्ति। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं लोकसेवायोगस्य अध्यक्षेण माधव प्रसाद रेग्मी इत्यनेन आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिने राष्ट्रपति कार्यालये आयोजिते कार्यक्रमे राष्ट्रपतेः समक्षम् आयोगस्य अध्यक्ष माधव प्रसाद रेग्मी गतार्थिक वर्षस्य आयोगस्य वार्षिक कार्याणां प्रतिवेदनं प्रास्तौत। तदवसरे राष्ट्रपतिः पौडेलः सर्वकारीय सेवायाः, नेपाली सेनायाः, नेपाल प्रहरिणः, सशस्त्र प्रहरी बलस्य, अन्य संघीय सर्वकारीय सेवायाः, संगठित संस्थायाः पदपूर्ते दायित्वस्य सम्पादनं प्रशंसनीयं भवतीति अभासत। राष्ट्रपतिः पौडेलः नेपाली जनतायाः आस्थायाः विश्वासस्य च स्तम्भस्य रूपेण स्थितेन आयोगेन इतोऽपि व्यवस्थिततया सुदृढतया प्रभावकारिरूपेण च कार्यसम्पादनं विधास्यते इति विश्वासम् अभिव्यनक। ह्य एव राष्ट्रपतेः समक्षं राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य वार्षिक प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनि राष्ट्रपति कार्यालये आयोजिते कार्यक्रमे आयोगस्य अध्यक्ष बालानन्द पौडेलः गतार्थिक वर्षस्य आयोगस्य कार्याणां प्रतिवेदनं प्रास्तौत। तदवसरे राष्ट्रपतिः पौडेलः वित्तीय संघीयतायाः क्रियान्वयनाय आयोगस्य भूमिका दायित्वं च महत्वपूर्णं भवतीति प्रावोचत। संसदीय श्रवण समित्या प्रस्तावितस्य न्यायाधीशस्य द्वयोः राजदूतयोः संसदीय श्रवणाय न्यायिक निवेदनं प्रदातुम् आहूतमस्ति। समितेः ह्यस्तनोपवेशेन प्रस्तावितस्य प्रधान न्यायाधीशस्य प्रकाशमान सिंह रावत इत्यस्य, बेल्जियम देशस्य च कृते प्रस्तावितस्य राजदूतस्य शिवा लम्सालस्य, अस्ट्रेलिया देशस्य कृते प्रस्तावितस्य राजदूतस्य चित्रलेखा यादवस्य च विषये न्यायिक निवेदनम् आहूतम् वर्तते। समित्या ह्य सूचनां प्रकाश्य दश दिवसाभ्यन्तरे समितेः सचिवालयात् जनपद प्रशासन कार्यालयाद्वा न्यायिक निवेदनं प्रदातुं शक्यते इति ज्ञापितम् अस्ति। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली दलस्य कार्यवाहक अध्यक्षस्य दायित्वं वरिष्ठ उपाध्यक्षाय ईश्वर पोखरेलाय प्रदत्तवान् वर्तते। दलाध्यक्ष ओली संयुक्त राष्ट्र संघस्य 79वीं महासभायां सहभागितायै ह्य अमेरिका देशं प्रति प्रस्थानस्य क्रमे दलस्य कार्यवाहकाध्यक्षस्य दायित्वं वरिष्ठ उपाध्यक्षाय ईश्वर पोखरेलाय निराधारयत् इति एमाले दलस्य केन्द्रीय कार्यालयस्य सचिव डाक्टर भीष्म अधिकारी अज्ञापयत्। सर्वकारेण अवैधानिक रूपेण व्ययीकृतस्य वित्तस्य अध्ययनं कृत्वा पारितीकरणस्य कृते परामृष्टं सार्वजनिक लेखा समितेः सदस्यस्य अच्युतप्रसाद मैनालिनः अध्यक्षतायां समितिं संघटयितुं निर्णीतं वर्तते। गत बुधवासरस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च पृथ्वी सुब्बा गुरूङ एतत् समितेः कार्यक्षेत्रं च निर्धारितमस्तीति असूचयत्। उपवेशेन प्रतिवर्षं वैशाख मासस्य सप्तमं दिवसं राष्ट्रिय याक गो दिवस रूपेण समायोजयितुम् अपि निर्णीतं वर्तते। उपवेशेन आगामिनः कार्तिक मासस्य सप्तमात् दशम दिवसं यावत् संयुक्त राज्य अमेरिका देशस्य वाशिंगटन डीसी स्थाने आयोक्ष्यमाणे विश्वकोष समूहस्य अन्तर्राष्ट्रिय मुद्राकोषस्य च संयुक्त वार्षिकोपवेशे सहभागितायै उपप्रधानार्थमन्त्रिणः नेतृत्वस्य प्रतिनिधिमण्डलाय स्वीकृतिं प्रदातुं च निर्णीतं वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भासते नेपालस्य शान्ति क्षेत्रत्वेन घोषणायाः महत्वं वर्तमानमस्ति। जनस्तरात् संघटितस्य शान्ति क्षेत्राभियानस्य ज्ञापनपत्रं गृह्णन् अध्यक्ष प्रचण्ड द्वन्द्वयुक्तायाः विश्वराजनीतेः प्रभावात् नेपालस्य संरक्षणं विधाय राष्ट्रिय स्वाधीनताम् याः रक्षायै शान्ति क्षेत्रस्य प्रस्तावः अग्रे सारणीय इति अवोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ गदति समाजस्य रूपान्तरणाय चलचित्र क्षेत्रस्य अतुलनीयं योगदानं वर्तते। चलचित्र विकास समित्या ह्य आयोजिते एतत् विक्रम वर्षीय सांस्कृतिक रूपान्तरण पुरस्कार प्रदान कार्यक्रमे मन्त्री गुरूङ चलचित्र क्षेत्रस्य उत्थानाय मन्त्रालयेन अधिकाधिकं सहयोग विधीयते इति विश्वासम् अदापयत्।